तम यथात्मसदृशं वरं वधूः अन्वरज्यत वरस्तथैव ताम् सागरादनपगाहि जाह्नवी सोऽपि तन्मुखरसैकवृत्तिभाक्
तमिति वधूः पार्वती आत्मसदृशं तं वरं शिवं अनुलक्षयित्वा यथा येन प्रकारेण अरज्यत रञ्जरागे दैवादिकात् लङ् वरः शिवः तां वधूम् अनु तथैव अरज्यत हि यथा जाह्नवी सागरात् समुद्रात् अनपगा अनिवर्तमाना अस्तीति शेषः सोऽपि समुद्रोऽपि तस्याः जाह्नव्याः मुखसम्बन्धिनिरसे एकाम् केवलाम् वृत्तिम् भजतीति तथोक्तः अस्तीति शेषः उपमालङ्कारः
शिष्यताम् निधुवनोपदेशिनः शङ्करस्य रहसि प्रपन्नया शिक्षितम् युवतिनैपुणम् तया यत्तदेव गुरुदक्षिणीकृतम्
शिष्यतामिति निधुवनोपदेशिनः सुरतोपदेष्टुः शङ्करस्य शिष्यताम् उपदेश्यताम् प्रपन्नया प्राप्तया तया पार्वत्या रहसि यद्युवतिषु त्रिजगद्विलासिनीषु मध्ये नैपुणम् कौशलम् शिक्षितम् अधीतम् तदेव नैपुणशिक्षणम् एव गुरुदक्षिणीकृतम् गुरोः अदक्षिणा दक्षिणा सम्पद्यते तथा कृतम् अभूततद्भावे च्विः अस्य च्वौ इति ईकारः शिवोपयोगित्वेन तत्कृतसुरतारम्भानुगुणसुरतकौशलमेव दक्षिणात्वेन परिणतमिति भावः इह वाक्यार्थवृत्तिनिदर्शनालङ्कारः वाक्यार्थयोः सदृशयोः ऐक्यारोपो निदर्शना इत्युक्तत्वात्
दष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुतहस्तपल्लवा शीतलेन निरवापयत्क्षणम् मौलिचन्द्रशकलेन शूलिनः
दष्टमुक्तमिति अम्बिका पार्वती पूर्वं दष्टं पश्चात् मुक्तम् अधरोष्ठं वेदनया पीडया विधुतौ कम्पितौ हस्तौ पाणी एव पल्लवौ यथा तथोक्ता सती शीतलेन शूलिनः शिवस्य मौलौ यच्चन्द्रस्य शकलम् कलारूपम् तेन कृत्वा क्षणम् निरवापयत् सुखयतिस्मेत्यर्थः
चुम्बनादलकचूर्णदूषितम् शङ्करोऽपि नयनम् ललाटजम् उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने
चुम्बनादिति चुम्बनाद्धेतोः अलकचूर्णेन केशप्रसाधनचूर्णविशेषेण दूषितम् अवरुद्धम् ललाटजम् ललाटे जातम् सप्तम्यां जनेर्डह इति डप्रत्ययः अलुको वैभाषिकत्वात् नालुक् नयनम् नेत्रम् उच्छ्वसत्कमलगन्धये विकसत्कमलसुगन्धये पद्मिनीत्वादिति भावः उपमानाच्च इति ईकारः गन्धो गन्धक आमोदे इति विश्वः पार्वत्याः वदनमेव गन्धवाही पवनः तस्मै गन्धवाहा नीलाशुगाः इति कोशनिर्दिष्टगन्धवाहशब्दस्य गन्धं वहतीति योगालम्बनेन गन्धवाहिशब्देनापि वायुत्वप्रतीतिः रूढ्यालम्बने तु अण्प्रत्ययान्तस्यैव पवनत्वप्रतीतौ शक्तिमत्वात् अवाचकपददोषप्रसङ्ग इति बोध्यम् ददौ तत्र अधः रजो निवर्तयितुम् स्थापितवानित्यर्थः
एवमिन्द्रियसुखस्य वर्त्मनः सेवनादनुगृहीतमन्मथः शैलराजभवने सहोमया मासमात्रमवसद्वृषध्वजः
एवमिति एवम् इन्द्रियाणि सुखयतीति इन्द्रियसुखः सुखशब्दात् करोत्यर्थक निजन्तात् पचाद्यच् निज्लोपश्च तस्य वर्त्मनः सेवनात् आचरणाद्धेतोः अनुगृहीतः प्रसादितः मन्मथः येन स्ववपुर्योजनादिति भावः परिणेष्यति पार्वतीम् यदा वपुषा स्वेन नियोजयिष्यति इति चतुर्थसर्गोक्तम् अनुसन्धेयम् तथा उक्तः वृषध्वजः हरः शैलराजभवने हिमालयगृहे उमया पार्वत्या सह मासमात्रम् त्रिंशद्दिनात्मकः कालः मासः तमेव अवसत् कालाध्वनोः इति द्वितीया मात्रम् कार्ष्ण्येव धारणे इत्यमरः
सोऽनुमान्यहिमवन्तमात्मभूः आत्मजाविरहदुःखखेदितम् तत्र तत्र विजहारसम्पतन् अप्रमेयगतिना ककुद्मता
स इति सः आत्मभूः शिवः आत्मजायाः पार्वत्याः विरहदुःखेन खेदितम् हिमवन्तम् अनुमान्य ततः आज्ञाम् गृहीत्वा अप्रमेयवत् स्वेव स्थानेषु वर्तत इति अपरिच्छेद्या गतिः गमनव्यापारः यस्य तथाभूतेन ककुद्मता नन्दिना तत्र तत्र पर्वते सम्पतन् सञ्चरमाणः विजहार विहारम् कृतवान् इह सञ्चरन्निति पाठः असाधुः समस्तृतीयायुक्तात् इति नित्यम् आत्मनेपदनियमात् शतुः दौर्लभ्यात् अमन्तमार्गपदम् शेषयित्वा सकर्मकत्वात् अप्रसङ्गः इति केचित् समर्थयन्ते
मेरुमेत्यमरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतः कृती हेमपल्लवविभङ्गसंस्तरान् अन्वभूत्सुरतमर्दनक्षमान्
मेरुमिति मरुदिव आशु गच्छतीति मरुदाशुगः उक्षाः वृषभः यस्य सः शेषाद्विभाषा इति कप् कृती कुशलो हरः मेरुम् सुमेरुम् मेरुः सुमेरुर्हेमाद्रिः इत्यमरः एत्य आगत्य पार्वत्याः स्तनाभ्याम् पुरस्कृतान् पूजितान् आश्रयत्वेन स्वीकारात् अल्पीयसाम् महत्स्वीकार एव पूजात्वेन परिणमतीति भावः। महताम् अल्पीयः स्वीकारे को हेतुः इत्याशङ्क्य विशेषयति। सुरतेषु यानि मर्दनानि तेषु क्षमान् सहिष्णून् हेम्नः पल्लवानाम् विभङ्गाः खण्डाः तेषाम् संस्तरान् आस्तरणानि अन्वभूत्। तत्र सुप्त्वा विजहारेत्यर्थः। अल्पीयसामपि सहिष्णुत्वम् हेम्नः विकारत्वात्। अल्पीयस्त्वम् तु पदो लवः पल्लवः इति सृष्टार्थमहिम्ना समर्थ्यते।
पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्वमृतविप्रुषो नवाः। मन्दरस्य कटकेषु चावसत् पार्वतीवदनपद्मषट्पदः।
पद्मनाभेति हरः, पद्मनाभः हरिः, पद्मनाभो मधुरिपुः इत्यमरः। तस्य चरणाभ्याम् अङ्किताः चिह्निताः अश्मानः येषाम्। एतेन हरेरपि विहारयोग्यत्वम् ध्वन्यते। तथा नवा अमृतविपृशः अमृतबिन्दून्। पृशन्ति बिन्दुपृशताः पुमांसो विपृशस्त्रियाम् इत्यमरः। प्राप्तवत्सु समुद्रमन्थनसाधनत्वात् अस्येति भावः। मन्दरस्य च कटकेषु नितम्बेषु कटकोस्त्री नितम्बोद्रेः इत्यमरः। पार्वत्याः वदनरूपे पद्मे षट्पदः भ्रमरः सन् अवसत् वासमकरोत्।
रावणध्वनितभीतया तया कण्ठसक्तदृढबाहुबन्धनः। एकपिङ्गलगिरौ जगद्गुरुः निर्विवेश विशदा शशिप्रभाः।
रावणेति जगताम् गुरुः नियन्ता। उत्पत्यादित्रिविधकर्मणाम् गुणभेदेन कारकत्वादिति भावः। शिवः एकपिङ्गलस्य कुबेरस्य यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः इत्यमरः। गिरौ कैलासे रावणस्य प्रसिद्धराक्षसस्य ध्वनितात् सिंहनादात् भीतया तया पार्वत्या कण्ठे सक्तम् सज्जितम् दृढम् बाहुबन्धनम् यस्य सः तथोक्तः सन् विशदाः स्वच्छाः शारदिकाः इति भावः। शशिनः प्रभाः कौमुदीः निर्विवेश उपभुक्तवान्।
तस्य जातु मलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम्। आचचाम सलवङ्गकेसरः चाटुकार इव दक्षिणानिलः।
तस्येति जातु कदाचित् तस्य तत्कर्तृके मलयस्थलेषु रतम् सुरतम् तत्र सति धूताः कम्पिताः चन्दनानाम् चन्दनवृक्षाणाम् लताः शाखाः येन सह तथोक्तः। लवङ्गानाम् केसरैः किञ्जल्कैः सह वर्तते तथोक्तः। दक्षिणानिलः मलयपवनः चाटुकार इव मधुरभाषी इव प्रियायाः क्लमम् खेदम् आचचाम हृतवानित्यर्थः।
हेमतामरसताडितप्रिया తత్కరాంబు వినిమీలితే క్షణ సా వ్యగాహత తరంగిణీముమా మీన పంక్తి పునరుక్త మేఖలా.
హేమేతి సా ఉమా పార్వతీ హేమ్నః తామరసేన రక్తోత్పలేన తటోత్పన్నేన తాడితః ప్రియః యయా సా పరిహాస విధిత్సయేతి భావః. తథా తస్య ప్రియస్య కరాంబునా హస్తాక్షిప్తజలేన వినిమీలితే ఈక్షణే నేత్రే యయా తథా మీనపంక్త్యా పునరుక్తా మేఖలా రశనా యస్యాస్తథోక్తా సతీ తరంగిణీం నదీం వ్యగాహత విజగాహే. జలక్రీడాం చకారేత్యర్థః తరంగిణీ శైవలినీ ఇత్యమరః.
తాం పులోమ తనయాలకోచితైః పారిజాత కుసుమైః ప్రసాధయన్ నందనే చిరమయుగ్మలోచనః సస్పృహం సురవధూభిరీక్షితః.
తామితి అయుగ్మాని విషమాణి త్రీణీతి యావత్ లోచనాని యస్య సః తథోక్తః శివః నందనే ఇంద్రోద్యానే పులోమతనయా శచీ పులోమజా శచీంద్రాణి ఇత్యమరః. తస్యాః అలకేషు కేశేషు ఉచితైః పారిజాతకుసుమైః కల్పవృక్షపుష్పైః తాం పార్వతీం ప్రసాధయన్ భూషయన్ తథా సురవధూభిః దేవాంగనాభిః సస్పృహం ఈక్షితః సన్ చిరం అవసత్ ఇతి శేషః.
ఇత్యభౌమమనుభూయ శంకరః పార్థివం చ దయితాసఖః సుఖం లోహితాయతి కదాచిదాతపే గంధమాదనవనం వ్యగాహత.
ఇతీతి శంకరః ఇతి ఏవం అభౌమం స్వర్గీయం తథా పార్థివం భౌమం చ సుఖం దయితాసఖః సన్ అనుభూయ కదాచిత్ సమయే ఆతపే సూర్యే లోహితాయతి రక్తవర్ణే జాయమానే సతి లోహితాదిడాజ్భ్యః క్యష్ ఇతి క్యష్ గంధమాదనస్య గిరేహే వనం వ్యగాహత తత్ర క్రీడితుం జగామేత్యర్థః.
తత్ర కాంచన శిలాతలాశ్రయః నేత్రగమ్యమవలోక్య భాస్కరం దక్షిణేతర భుజవ్యపాశ్రయా వ్యాజహార సహధర్మచారిణీం.
తత్రేతి తత్ర గంధమాదనవనే సహ హరః భాస్కరం సూర్యం నేత్రగమ్యం నేత్రప్రాప్యం నేత్రావలోక్యమితి యావత్ అవలోక్య విచార్య కాంచనం సౌవర్ణం శిలాతలం ఆశ్రయః యస్య తథోక్తః సన్ దక్షిణేతరః భుజః వామభుజః తత్ర వ్యపాశ్రయః సంబంధః యస్యాః తాం తత్ర స్థితామిత్యర్థః. సహధర్మచారిణీం పత్నీం పార్వతీం వ్యాజహార ఉక్తవాన్ వ్యాహార ఉక్తిర్లపితం ఇత్యమరః.
పద్మకాంతి మరుణత్రిభాగయోః సంక్రమయ్య తవ నేత్రయోరివ संक्षये जगदिव प्रजेश्वरः संहरत्यः रसावहर्पतिः
पद्मेति हे प्रिये असौ पुरोवर्ति अहर्पतिः सूर्यः अरुणे त्रिभागौ तृतीयांशौ ययोस्तयोः तव नेत्रयोः इव पद्मकान्तिम् कमलशोभाम् संक्रमय्य तुलयित्वा कमलप्रतिनिधित्वेन रात्रौ तव नेत्रकमल एव स्थास्यत इति विचार्येति भावः संक्षये प्रलये प्रजेश्वरः ब्रह्मा जगदिव अहो दिनं संहरति स्वस्य अस्तंगतत्वादिति भावः अत्र गम्योत्प्रेक्षा